एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्रिणा बालेन्द्र साहेन सह नेपालस्य कृते भारतदेशस्य राजदूतेन चीनदेशस्य राजदूतेन च पृथक् पृथक् मेलवार्ता विहिता अस्ति। सीमाप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्य प्रधानमन्त्रिणा साहेन सह भारतीय राजदूतेन नवीन श्रीवास्तवेन विहिते मेलने द्वयोः देशयोः द्विपक्षीयस्य सम्बन्धस्य पारस्परिक हितस्य सहकार्यस्य च विविधेषु पक्षेषु विमृष्टमस्ति। तदवसरे राजदूत श्रीवास्तव नेपाल भारतयो ऐतिहासिक संबंधम अधिकं सुदृढ़ विधात् प्रतिबद्धता अभिवेनक। सहैव मेलवार्तायां द्विपक्षीयानां आयोजनानां आर्थिक सहकार्यस्य व्यापार प्रवर्धनस्य च विषयेषु विमृष्टमस्तीति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितं वर्तते। एवमेव प्रधानमन्त्रिणा साहेन सह चीनदेशस्य राजदूतेन झांग माओमिंग इत्यनेन विहिते मेलने नेपाल चीनदेशयो सम्बन्धम् अधिकं दृढं विधातुं विभिन्नेषु क्षेत्रेषु सहयोगस्य प्रवर्धनाय सहकार्यस्य अभिवृद्धये च विमृष्टमस्ति। तदवसरे प्रधानमन्त्रिणा साहेन चीनदेशेन सह विद्यमानम् ऐतिहासिक सम्बन्धं प्रगाढं विधाय द्वयोर्पक्षयोर्हिताय मिलित्वा कार्यं करणीयम् इत्यत्र बलम् दत्तमासीत्। तदवसरे राजदूतेन माओमिंग इत्यनेन द्वयोः देशयोः पारस्परिकं सम्बन्धं सहकार्यं च अधिकं सुदृढं विधातुं प्रतिबद्धता व्यक्ता आसीत्। प्रतिनिधिसभायाः स्तनोपवेशेन द्वाचत्वारिंशदुत्तर द्विसहस्रतम विक्रमवर्षस्य नेपाल विशेष सेवाधिनियमस्य वर्तमान व्यवस्थायाः उद्भावन सम्बद्धं विधेयकं बहुमतेन पारितीकृतं वर्तते। उपवेशेन प्रधानमन्त्रिणः बालेन्द्रसहस्य पक्षतः विधि न्याय संसदीय विषय मन्त्रिणा सोविता गौतम इत्यनया सभायां प्रस्तुतं राज्य व्यवस्था सुशासन समितेः प्रतिवेदनेन सहितं एतत् विधेयकं बहुमतेन पारितीकृतमस्ति। एवमेव उपवेशेन सांविधानिक निकायानां पदाधिकारिणां पारिश्रमिक सेवा शपथ सौविध्य सम्बद्धम् एतद् विक्रमवर्षीयं प्रथम संशोधन विधेयकम् अधिकृत्य विचारो भवतु इति प्रस्तावः बहुमतेन स्वीकृतो वर्तते। उपवेशे सभामुखेन डोल प्रसाद अर्यालेन सांविधानिक निकायानां पदाधिकारिणां पारिश्रमिक सम्बद्धम् एतद् विधेयकम् अधिकृत्य सांसदाः संघीय संसद सचिवालय संशोधन प्रस्तावान् प्रस्तोतुं शक्नुवन्तीति विज्ञापिताः आसन्। उपवेशे अर्थमन्त्री डॉ सोणी मवागले एतद् विक्रमवर्षीयं कर्मचारी संचय कोष दशम संशोधन विधेयकं विधि न्याय संसदीय विषय मन्त्री सोविता गौतमः मेलमिलाप विधेयक सम्बद्धम् एतद् विक्रमवर्षीयं द्वितीय संशोधन विधेयकं युवश्रम वृत्त्युपार्जन मन्त्री रामजी यादवः बालश्रम निषेध नियमन सम्बद्धम् एतद् विक्रमवर्षीयं विधेयकञ्च प्रस्तुतवन्तः। प्रतिनिधिसभायाः स्तनोपवेशे परराष्ट्रमन्त्री शिशिर खनालः सांसदैस्सह प्रश्नोत्तर कार्यक्रमे सहभागी भूत्वा मन्त्रालयेन सर्वकारस्य ऐतिहासिक कौटनीतिक महत्वस्य अभिलेखानां संरक्षणस्य कार्यं गभीरतया स्वीकृत्य विधीयमानं वर्तते इति असूचयत्। एवमेव सांसदानां प्रश्नान् उत्तरयन्ती स्वास्थ्य खाद्य स्वच्छता मन्त्री निशा मेहता प्रति प्रदेशं न्यूनतोपि एकस्य ट्रमा सेन्टर इत्याख्यस्य आघात चिकित्सा केन्द्रस्य विस्तारस्य आवश्यकतायाः अनुसारेण आघात चिकित्सा विभागस्य स्थापनायाः कार्यम् अग्रे वर्धापितं वर्तते इति अज्ञापयत्। एवमेव उपवेशे सांसदैस्सह प्रश्नोत्तर कार्यक्रमे सहभागी भूत्वा युवश्रम वृत्त्युपार्जन मन्त्री रामजी यादवः यूनां कृते शिल्प विकासः वृत्त्युपार्जनानां सर्जनं नेतृत्व विकासः उद्यमशीलतायाः प्रवर्धनं चेत्यादि विषयक कार्यक्रमः मन्त्रालयेन संचाल्यमानः सन्तीति असूचयत्। तत्पूर्वं प्रतिनिधिसभायाः स्तनोपवेशे प्रतिपक्षिदलानां सांसदाः प्रधानमन्त्रिणं प्रतिपक्षिदलेभ्य न भवितुं परामर्शनं प्रदान संवादं कृत्वा आलोचनां शत्रुतायाः रूपेण अगृहीत्वा सुधारस्य रूपेण ग्रहीतुम् अनुरुद्धवन्तः। सांसदैः दैनिकोपभोग्य वस्तूनां जायमानां मूल्यवृद्धिं प्रति पाचनेन्धनस्य अभावं प्रति च सर्वकारस्य ध्यानाकर्षणं विहितम्। प्रतिनिधिसभायाः अपरोपवेशः अद्य दिवा एकवादने पुनर्वसति। प्रतिनिधि सभाया शिक्षा स्वास्थ्य सूचना प्रविधि समितौ एकाशीत्युत्तर 2000तमं राष्ट्रिय विधि विज्ञान प्रयोगशाला विधेयकमाधृत्य प्रकरणगतं विमर्शनं सम्भूतमस्ति। सांसदः प्रयोगशालायां कर्मचारिणां नियुक्तये समावेशितायाः सिद्धान्तः विधेयके एव उल्लेखनीयः इत्यत्र बलं दत्तवन्तः। विज्ञान प्रविधि नव प्रवर्तन मन्त्री महावीर पुन आगामीषु दिनेषु सर्वेष्वपि निकायेषु नियुक्तये नव प्रविधौ दक्षः युवानः प्राथमिकतायां स्थापनीयः इत्यत्र बलं प्रादात्। राष्ट्रिय सभायाः विकास आर्थिक विषय सुशासन समित्या एतद् विक्रम वर्षीयायाः सदाचार नीतेः क्रियान्वयनाय तत्कालमेव सदाचाराधिनियमस्य कृते विधेयक प्रस्तोतुं सर्वकारः निर्दिष्टो वर्तते। उपवेशे सदस्याः सदाचारस्य पालनं सर्वकारस्य पक्षतः एव प्रारभणीयम् इति चर्चयन्तः सदाचारस्य जीवन पद्धतौ अनुपालनाय बलं दत्तवन्तः। सांसदः सदाचारः सर्वेषु क्षेत्रेषु वर्गेषु च अपरिहार्य स्थिति उक्त्वा सदाचारं विद्यालयस्य पाठ्यक्रमे समावेष्टुं सर्वकारस्य अग्रेसरतायाः आवश्यकतां व्यक्तवन्तः। सर्वकारेण विराटनगर जूट मिल इत्याख्यस्य पटसन सूत्रोद्योगस्य पुनः संचालनाय अध्ययनं विधातुं कार्यदलं संघटितमस्ति। उद्योगस्य विधेय वर्तमानार्थिक प्राविधिक व्यवस्थायाः अध्ययनं विधाय पुनः संचालनाय उपयुक्तं विकल्पं परामृष्टुं विज्ञै सहितं कार्यदलं संघटयितुं निर्णीतमस्ति। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपवेशेन विराटनगर पटसन सूत्रोद्योगस्य वर्तमानावस्थायाः एतत्पूर्वं सम्भूतानां निर्णयानां विभिन्नानां निकायानां निर्मितानाम् अध्ययन प्रतिवेदनानां च समीक्षां विधाय अस्योद्योगस्य पुनः संचालनाय आवश्यकीं रणनीतिं निश्चेतुं कार्यदलमिदं संघटयितुं निर्णीतमस्तीति प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयस्य सचिवः वीरेन्द्र कुमार यादवः असूचयत्। सुर्खेत जुम्ला मार्ग खण्डे गति नियन्त्रणोपकरणस्य विफलतायाः कारणेन अटोयानम् अनियन्त्रितं भूत्वा दुर्घटितं सत् एको जनः मृतोऽस्ति। दुर्घटनायां त्रयो जनाः आहताः वर्तन्ते। मृतकः कालीकोट जनपदस्य महावै ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य गेलाग्रामस्य 35 वर्षीयः मंगलशाही वर्तते इति प्रहरिणा ज्ञापितमस्ति। ह्य कालीकोट जनपदस्य पिप्ली स्थानात् मान्मस्थानं प्रति प्रस्थीयमानम् अटोयानम् अनियन्त्रितं सत् दुर्घटितमासीत्। आहतेषु द्वयोः जनयो अवस्था गभीरा वर्तते इति प्रहरिणा ज्ञापितमस्ति।